सम्पत्सु महतां चित्तं भवत्युत्पलकोमलम् आपत्सु च महाशैलशिलासङ्घातकर्कशम्। सामान्यजनाः सौख्यकाले आनन्देन अत्युत्सुकाः भवन्ति, कष्टकाले निरुत्साहिनः सन्तः असहायकताम् अनुभवन्ति, किन्तु महापुरुषाः न तथा। सम्पत्तेः प्राप्तौ तेषां मनः कमलवत् कोमलं भवति, आपत्तौ ते किञ्चिदपि विचलिताः न भवन्ति, महापर्वतस्य शिला इव नितरां दृढं तिष्ठन्ति।